इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः रूपलाल शर्मा आदौ मुख्य वार्ताः प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य गुजरातस्य अहमदाबाद नगरे 8,000 कोटि रूप्यकाणां विभिन्नानां परियोजनानां उद्घाटनं शिलान्यासं च अकरोत्। भाजपेति दलस्य वरिष्ठ नेता गृहमन्त्री अमित शाह अद्य अवदत् यत् केन्द्रशासित प्रदेशे जम्मू काश्मीरे भयोत्पादनस्य पुनरुत्थानं कर्तुं प्रयत्नः क्रियन्ते, परन्तु तत्र अस्माभिः एवं प्रकारेण आतंकवादः भूमिसात् क्रियते यत् पुनरुत्थानं तस्य नैव कदाचित् भवितुं शक्नोति। जम्मू काश्मीरे प्रथम चरणीय विधानसभा निर्वाचनस्य प्रचाराभियानमद्य सम्पन्नम्। अष्टमस्य भारत जल सप्ताह 24,000 इत्यस्य आरम्भ स्वारभ्य नवदेहल्याम् आरप्स्यते। राष्ट्रपति द्रौपदी मुर्मू भारत मण्डपे अस्य कार्यक्रमस्य उद्घाटनं करिष्यति। अपि च क्रीडा वार्तायाम्, एशिया चैम्पियन हॉकी प्रतिस्पर्धायां भारतेन दक्षिण कोरिया इति दलं 4-1 इति अन्तरालेन उपान्त्य चक्रे पराजितम्। अन्तिम चक्रे भारतं चीन देशेन सह स्पर्धिष्यते। अथ वार्ताः विस्तरेण। प्रधानमन्त्री श्रीनरेन्द्रमोदी हरित विकासस्य शून्य कार्बन उत्सर्जनस्य च लक्ष्यं प्राप्तुं भारतस्य प्रतिबद्धताम् अभिव्यक्तवान्। श्रीमोदी अद्य गांधीनगरे वैश्विक नवीकरणीय ऊर्जा निवेशक सम्मेलनस्य प्रदर्शन्याश्चापि उद्घाटनम् अकरोत्। तत्रैव गांधीनगरस्य महात्मा इति मन्दिरे प्रधानमन्त्री सूर्यगृह निशुल्क विद्युत योजनाया लोकार्पणेन सहैव योजनाया लाभार्थिजनै सहापि वार्तालापम् अकरोत्। प्रधानमन्त्री अवदत् यत् विकासशील देशे सत्यपि भारतेन पैरिस मध्ये निर्धारित जलवायु प्रतिबद्धता विषयकं लक्ष्यं नववर्षपूर्वमेव अधिगतम्। प्रधानमन्त्री अवदत् यत् पीएम सूर्यगृह निशुल्क विद्युत योजनायाः कारणात् भारतस्य प्रत्येकमपि गृहं विद्युतः उत्पादनं करिष्यति। सम्प्रति यावत् पीएम सूर्यगृह निशुल्क योजनार्थं 1 कोटितोप्यधिका जनाः पंजीकरणम् अकुर्वन्। एतस्याः योजनायाः अन्तर्गतं 3 लक्षाधिक गृहेषु छद्यां सौर संयंत्राणि स्थापितानि सन्ति।
रूफटॉप सोलर की एक यूनिक स्कीम है, इसके तहत हम रूफटॉप सोलर सेटअप के लिए हर फैमिली को फंड कर रहे हैं, इंस्टॉलेशन में मदद कर रहे हैं। इस एक योजना से भारत का हर घर एक पावर प्रोड्यूसर बनने जा रहा है। अब तक 1,30,00,000 से ज्यादा फैमिलीज इसमें रजिस्टर कर चुकी है। अभी तक 3.25 लाख घरों में इस योजना के तहत इंस्टॉलेशन का काम पूरा भी हो चुका है।
भाजपेति दलस्य वरिष्ठ नेता तथा गृहमंत्री अमित शाह अद्य अवदत् यत् जम्मू काश्मीरे भयोत्पादनस्य पुनरुत्थानं कर्तुं प्रयत्नः क्रियन्ते, परन्तु वयं तस्य एवं प्रकारेण सर्वथा नाशं करिष्यामः यत् पुनः कदापि अयम् आतंकवादः उत्थातुं न शक्ष्यति। किस्तवाड़स्य पद्देर नागसेनी इत्यत्र पूर्वमन्त्रिणः सुनील शर्मणः समर्थने निर्वाचन समारोहं सम्बोधयन् सः वदत् यत् भयोत्पादनस्य पुनरुत्थानं कर्तुं प्रयासाः प्रचलन्ति, यतः नेशनल कॉन्फ्रेंस तथा कांग्रेस घोषणापत्रं भयोत्पादकेभ्य मुक्तेः विषये कथयन्ति। अष्टमस्य भारत जल सप्ताह 24,000 स्वारभ्य नवदेहल्याम् आरप्स्यते। राष्ट्रपतिः द्रौपदी मुर्मू भारत मण्डपे अस्य कार्यक्रमस्य उद्घाटनं करिष्यति। चतुर्दिवसीय कार्यक्रमे 40 देशानां 200 वैदेशिक प्रतिनिधिभिः सह सम्मेल्य 4,000 प्रतिनिधय भागं ग्रहीष्यन्ति। अस्मिन् कार्यक्रमे एका प्रदर्शनी अपि भवति, तत्र च समुचित जल प्रबन्धनाधारिताः विषयाः प्रदर्शिष्यन्ते। नवदेहल्यां जलशक्ति मन्त्रालयस्य सचिवः देवाश्री मुखर्जी अवदत् यत् सुजल प्रबन्धनात् देशस्य आर्थिक वृद्धि द्रुतगत्या वर्धिष्यते। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। मिलाद ईद मिलाद उन नबी इति पर्व अद्य देशस्य विभिन्नेषु भागेषु धार्मिक भावनया आमान्यते। राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति जगदीप धनखड़, प्रधानमंत्री श्रीनरेन्द्र मोदी च मिलाद उन नबी इत्यस्य अवसरे देशवासिभ्य शुभाशया प्रदत्तवन्तः। स्वीय सन्देशे राष्ट्रपति मुर्मू प्रावोचत् यत् पैगम्बर मोहम्मदेन जनेभ्य विश्वं प्रेम्णः शान्ते च सन्देशः प्रदत्तः। तस्य शिक्षा अस्मान् भ्रातृभावनया सौहार्द भावेन च सह जीवनं यापयितुं प्रेरयन्ति। एकस्मिन् सन्देशे प्रधानमन्त्री प्रोदीरितवान् यत् यस्य पर्वण माध्यमेन समाजे सौहार्दस्य करुण भावनायाश्च संचारो भविष्यति। पैगम्बर मोहम्मदस्य जन्मदिनं ईद मिलाद उन नबी अवसरे पैगम्बरस्य जीवन सम्बद्ध शिक्षाणां विषये विभिन्न सम्मेलनानि चर्चा सत्राणि चापि भवन्ति। भारतेन यागी झंझावात प्रभावित देशानां तत्र च म्यांमार लायोस वियतनामादिनां कृते मानवीय साहाय्यं प्रदातुं ऑपरेशन सद्भाव आरब्ध। भारतेन प्रभावि देशानां कृते साहाय्य सामग्री अपि प्रेषिता। एशियायाः इमे देशाः सम्प्रति महत्याः त्रासद्याः कारणात् भीषण जलोघेन च पीडिताः सन्ति। विदेशमन्त्री एस जयशंकरः अवदत् यत् भारतीय नौसेनायाः जलपोतः आईएनएस इति विविध खाद्य सामग्री पूरितः 10 टन युत भारेण सह तत्र साहाय्यार्थं प्रेष्यते। अद्य अन्ताराष्ट्रिय ओजोन स्तर संरक्षण दिवस आचर्यते। ओजोन इति पट्टिका प्रतिवर्ष सूर्यतः पृथ्वीं प्रति आगम्यमानानां हानिकारक किरणानां प्रभावात् अस्मान् मुञ्चति। इयं ओजोन स्तराख्य पट्टिका अस्य वर्षस्य ओजोन दिवसस्य विषयत्वेन वर्तते। मॉन्ट्रियल प्रोटोकॉल इति जलवायु क्षेत्रे अग्रे आगता पदक्षेपा तत्र वर्तन्ते। हरियाणा राज्ये आगामिनि लोकसभा निर्वाचने भिवानी जनपदे आहत्य 9,275,000 8 लक्षं यावत् मतदातारः निज मताधिकारस्य प्रयोगं करिष्यन्ति। भिवानी जनपदस्य उपायुक्तः जनपद निर्वाचनाधिकारी च महावीर कौशिकः असूचयत् यत् मतदातृणां सौविध्याय एतस्मिन् जनपदे 1,40,900 मतदान केन्द्राणि विनिर्मितानि सन्ति। एतेषु मतदातृ केन्द्रेषु महिलानां कृते अपि 4 केन्द्राणि स्थापितानि। पिंक बूथ इत्येतेषु मतदातृ केन्द्रेषु महिलाधिकारिभिः कर्मचारिभिश्च मतदानं करिष्यते। उपायुक्तेन संसूचितं यत् प्रत्येकस्मिन् विधानसभा क्षेत्रे एकं पिंक बूथ इति मतदान केन्द्रं स्थापितमस्ति। असौ भणितवान् यत् मतदान दातृणाक्रष्टुं एतानि पिंक बूथ इति महिलाभ्य निर्मितानि केन्द्राणि पुष्पैः फुल्लकैश्च मालाभिः चापि सज्जितानि भविष्यन्ति। भारत ऋतु विज्ञान विभागः अद्य झारखण्ड राज्याय अतिवृष्टिमालक्ष्य संचेतना प्रख्यापिता। आकाशवाण्या सह सम्भाषयन् ऋतु विज्ञान विभागस्य वैज्ञानिकः आरजे जेनामणिः सूचितवान् यत् उत्तरीय ओडिशा पूर्वीय छत्तीसगढ़ गांगेय पश्चिम बंगालेषु अतिवृष्टिः सम्भाव्यते इति। पूर्व संयुक्त राज्य अमेरिकायाः राष्ट्रपतिं डोनाल्ड ट्रम्पम् उद्दिश्य स्पष्टतया हनन प्रयासः केनचित् अराजकतत्वेन कृतः। तस्मिन् काले श्रीट्रम्पः स्वीय गोल्फ क्रीडांगणे आसीत्, परन्तु श्रीट्रम्पः तत्र सुरक्षितः अथ च सुरक्षितस्थानं प्रति नीतः। एतस्मिन् प्रकरणे कश्चन भुशुण्डीधारी जनः गृहीतः। मासद्वयात् पूर्वमपि ट्रम्पम् उद्दिश्य एकेन जनेन पेन्सिल्वेनिया मध्ये तस्य जनसम्बोधनकाले एतादृश एव हत्याप्रयास आचरितः आसीत्। तत्र च श्रीट्रम्पस्य कर्णः व्रणितः जातः आसीत्। अमेरिकायाः उपराष्ट्रपतिः कमला हैरिसः एतस्याः दुःखद घटनायाः तत्र विषये खेदं प्रकटितवती। प्रधानमन्त्री अकथयत् यत् यूनां कृते नवीकरणीय ऊर्जा क्षेत्रे वृत्तेः पर्याप्तावसराः सन्ति। श्रीमोदिना इदमपि प्रकथितं यत् जलवायु समर्थक सिद्धान्तः भारतस्य प्रतिबद्धतायाः प्रमुख भागरूपेण वर्तते, यत्र च मिशन लाइफ इत्युक्ते परावरणानुकूल जीवनशैल्याः पुनः उपयुज्यमान अर्थव्यवस्थायाः च साकारीकरणमपि सम्मिलितं वर्तते। देशस्य जनाः अनया योजनया लाभान्विताः भविष्यन्ति। अधुना मुख्यवार्ताः पुनरेकवारम्। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य गुजरातस्य अहमदाबादनगरे 8,000 करोड़ रूप्यकाणां विभिन्नानां परियोजनानाम् उद्घाटनं शिलान्यासं च अकरोत्। भाजपा दलस्य वरिष्ठ नेता गृहमन्त्री अमित शाह अद्य अवदत् यत् केन्द्रशासित प्रदेशे जम्मू काश्मीरे भयोत्पादनस्य पुनरुत्थानं कश्चिदपि कर्तुं न शक्नोति। अष्टमस्य भारत जल सप्ताह 24,000 इत्यस्य आरम्भ नवदेहल्यां श्व आरप्स्यते। अपि च एशिया क्रीडा वार्तायां हॉकी प्रतिस्पर्धायां भारतेन कोरिया देश विरुद्ध विजय अधिगत, अग्रे चीन देशेन सह स्पर्धिष्यते इति वार्ताः।